काराधद्धोत्रास्विनाभाङ्को भाम् जोष उभयोः कथामि दात्यप्रचेताः विद्वांसा विद्वुरः पृच्छेद विद्वानित्थापरो अचेताः नो चिन्वमत्ते अक्रौ ता विद्वांसाः वामहे भान्तानो विद्वांसा मन्नावोचेतमद्य प्राचर्दयमानो युवाकोः विपृच्छामि पाख्या आनदेवान्यषट्कृतः स्याद्भुतस्य दस्रा भातम् च सह्यासो युवम् च लभ्यासो नः प्रजाघोषे भृगवानेन शोभेजया वाचाय जातिपद्यो वा प्रैषयर्न विद्वान् श्रृङ्गा यत्रन्तकबालस्याहम् सिद्धिरिरे भास्विना वाक्षीषु भस्पतिदम् युवम् ह्यास्तम् महोरम् युवम् वाजम् निरत संसतम् तानो वसुसु गोपास्यातम् पातम् नो वृतालघायोः मा कस्मै धातमभ्यमित्रिणे मा कुत्रा नो गृहेभ्यो धेनवो स्तनाभुजो अशिश्वीः गृहीयम् मित्रधीतये युवाको राजे च नो विहीतम् वाजभत्यै युषे च नो विमीतम् धेनुमत्यै अश्विनारसनम् रथमनस्वम् वाजिनीवतोः तेनाहम् भूरि चाकन अयम् स महमातनो ह्यादेजना अनु सोमपेजम् सुखो रथाः अधस्वप्नस्य निर्भिदे भुञ्जतश्च रेवताः उभादाभश्रीनस्य दः